तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ बाहुपार्श्वपरीक्षिप्तौ कबन्धो वाक्यमब्रवीत् तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ तत्श्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा उवाचार्ति समापन्नो विक्रमे कृतनिश्चयः त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः तस्मादशिभ्यामस्याश्रु बाहु छिन्दावहे गुरु ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांस देशयोः दक्षिणो दक्षिणं बाहु मसत्तमसिना ततः चिच्छेद रामो वेगेन शव्यं वीरस्तु लक्ष्मणः स पपात महाबाहु छिन्नबाहुर्महास्वनः खं च गां च दिशश्चैव नादयन् जलदो यथा स निकृत्तौ भुजौ दृष्ट्वा शोणितौघ परिपुतः दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् अस्य देवप्रभावस्य वसतो विजने वने रक्षसापहृता भार्या यामिच्छन्ता विहागतौ त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने आस्येनोरसि दीप्तेन भग्न जङ्घो विचेष्टसे एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् स्वागतं वां नरव्याघ्रौ दृष्ट्या पश्यामि चाप्यहम् दृष्ट्या चेमौ निकृत्तौ उमे युवाभ्यां बाहुबन्धनौ विरूपं यच्च मे रूपं प्राप्तं ह्यभिनयाद्यथा तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव।